ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् ॐ नमः पाणिनिकात्यायन पतञ्जलिभ्यः शब्दविद्यासम्प्रदायकर्तृभ्यः परमर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः। नमस्कारः महोदय।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति हल् सन्धिः इति, किन्तु तस्मात् किञ्चित् अवधिः आवश्यकी इति कृत्वा तत्र वयं काञ्चनकथां नास्ति खलु, काश्चन कथाः पठन्तः स्मः। अस्तु, तर्हि तत्र गतवर्गे प्रेषिता कथा अस्ति तत्र आत्मनः परिष्काराय प्रयासः इति, अथ तथा आरभ्य पठामः। अस्तु, तर्हि तत्र शोभा भगिनी आरम्भं करोति वा?
मम पार्श्वे नास्ति महोदय,
गतवर्गस्य नास्ति,
गतवासरे न आगतवती।
हा, किन्तु ईमेल् मध्ये अस्ति खलु,
गतवासरस्य ईमेल् वा? ओ, नास्ति महोदय, ईमेल् नास्ति।
तर्हि किं कुर्मः, तर्हि तत् तां कथां कथां पठामश्चेत् तत्र कथं कुर्मः, तर्हि एकनिमेषः तत्र कोऽपि कथां प्रेषयति वा इति एकनिमिषः भगिनि। हा, एकनिमिषः तत्र, तर्हि अहं तत्र वाट्साप् मध्ये प्रेषयामि, तदनन्तरं तत्र सर्वे
वाट्साप् मध्ये
प्रेषितवती वा भगिनि? ओ, समीचीनं,
प्रेषितवती।
ओ, अस्तु अस्तु, समीचीनं, हा, धन्यवादः भगिनि। अस्तु, हा, तर्हि तत्र उषा भवती एव आरम्भं करोतु तर्हि।
आं महोदय, आं महोदय, एकनिमिषम्। प्रेषितवती।
धन्यवादः भगिनि। हा, निवेदिता भगिनी, नमस्कारः।
आत्मनः परिष्काराय प्रयासः।
नमः।
महेन्द्रनाथगुप्तः रामकृष्णपरमहंसस्य शिष्यः, सः वादशीलः सर्वदा कमपि अंशम् अधिकृत्य सः परमहंसेन सह वादं करोति स्म। अथ एकदा सः परमहंसम् अपृच्छत्, भगवान् साकारः उत निराकारः? उभयता अपि सः, यस्मिन् रूपे श्रद्धा तस्मिन् भवान् भक्तिं कर्तुम् अर्हति। परमहंसः अवदत्, भगवान् साकारः स्यात् चेदपि मृदादिप्रतिमा रूपः तु न। महेन्द्रनाथः अवदत्, मृदादिरूपे अपि चिन्मयः सः, भगवान् एव द्रष्टव्यः अस्माभिः। परमहंसः अवदत्। अग्रिम पठामि वा महोदय?
समीचीनं भगिनि, अस्तु, अग्रे अन्य कोऽपि पठेत्, तर्हि तत्र हर्षदा भगिनी अग्रे पठति वा?
महोदय, इदानीं प्राप्तवती, अनन्तरं पठामि दृष्ट्वा।
इदानीं अस्ति कथा
मम पार्श्वे अस्ति, परन्तु
वेदा भगिनी पठितुं शक्नोति वा?
आम् आं महोदय,
अस्तु, तर्हि पठतु।
केचन अव्याः मृदादिरूपमेव भगवन्तं भावयन्तः अर्चन्ति, अज्ञाः ते, अविवेकिनः ते, बोधनीयाः ते, भगवान् पूजनीयः न तु मृदादिमूर्तयः इति। भवादृशानां सुक्षितं मन्यमानानां कश्चन उत्साहः अन्येषां बोधने। आत्मा कथं परिष्करणीयः, स्वहृदये प्रकाशः कथम् उत्पादनीयः इत्यादिषु सर्वथा अनास्था भवताम्। यः एतज्जगत् सृष्टवान् यः वृष्टिसस्यादिकं सृष्टवान् यः मातापित्रादिषु प्रीतिवात्सल्यादिकम् अपूरयत् सः भगवान् अग्नेषु ज्ञानमपि उत्पादयेत् काले सर्वं कृतवता तेन किम् एतावत् कर्तुं न शक्येत सः तत् कुर्यात् एव पात्रा पात्रतां दृष्ट्वा अस्माभिः तु आत्मनः परिष्काराय प्रयासः करणीयः
पात्रा अपात्रतां दृष्ट्वा
आम् आम् पात्रापात्रतां दृष्ट्वा अस्माभिः तु आत्मनः परिष्काराय प्रयासः करणीयः अस्तु नाम अस्तु नाम तेषां बोधनचिन्तनम् अहं परित्यक्ष्यामि तथापि तैः क्रियमाणा मृदादिपूजा व्यर्था एव ननु महेन्द्रनाथः पुनः अपृच्छत्
अस्तु इदानीम् अग्रे तत्र उषास्वामिनाथन् भगिनि भवत्याः पार्श्वे अस्ति वा कथा
अस्तु अस्ति महोदय
अस्तु
न व्यर्थ न व्यर्थ मृत् शिला काष्ठलोहिता लोहाति मृत् शिला काष्ठलोहातिमयानां मूर्तिनां पूजा भगवता एव व्यवस्थापिता यथा मातापुत्रादीनां जीर्णशक्तेः अनुगुणम् आहारादिकं सज्जीकरोति तथा अधिकारिणं सामर्थ्यानुगुणम् तथा अधिकारिणां सामर्थ्यानुगुणं सः व्यवस्थां परिकल्पयति अतः न कापि व्यवस्था व्यर्था अस्माभिः तु स्वस्य अन्तरङ्गे प्रकाशस्य उत्पादनाय सत्यसाक्षात्काराय उत्तमत्वप्राप्तये च प्रयासः करणीयः आत्मनः उद्धारम् अकृत्वा अन्येषाम् उपदेशाय क्रियमाणः प्रयासः व्यर्थः एव इति विवृतवान् परमहंसः महेन्द्रनाथः परमहंसेन बोधितम् एव मनसि आकलयन् ततः निर्गतवान्
समीचीनं धन्यवादः अस्तु समीचीना अस्ति कथा किं मन्ये इदानीं तर्हि तत्र पङ्क्तिशः परिशीलयामः इदानीं तत्र व्याकरण अंशाः तत्र तेषां परिशीलनं तर्हि तत्र यावत् शक्तिः तत्र विभक्ति वचनम् इत्यादि तत्र अथवा तत्र विशिष्ट अंशः अस्ति चेत् तत्र तस्मिन् विषये किञ्चित् विवरणं दातव्यं तावदेव अस्तु तर्हि तत्र शुभदा भगिनी आरम्भं करोति वा
आं महोदय महेन्द्रनाथगुप्तः रामकृष्णपरमहंसस्य शिष्यः सः वादशीलः सर्वदा कमपि अंशम् अधिकृत्य सः परमहंसेन सह वादं करोति स्म रामकृष्णपरमहंसः इति एकः महर्षिः वयं सर्वे जानीमः तेषां एकः शिष्यः आसीत् शिष्यगणेषु अन्यतमः एकः महेन्द्रनाथगुप्तः इति एकः शिष्यः आसीत् सः विवादं कर्तुं सर्वदा उत्सुकः किमपि विषयं गृहीत्वा सः विवादं कर्तुं बहु आनन्दं सः अनुभवं करोति स्म अथ एकदा सः परमहंसम् अपृच्छत् भगवान् साकारः उत निराकारः अतः एकस्मिन् दिने एकदा सः परमहंसं तस्य गुरोः अपृच्छत् गुरुम् अपृच्छत् यत् भगवान् देवः साकारः मन्येत वा निराकारः मन्येत इति तस्य प्रश्नः आसीत्। तस्य विवादस्य विषयः तु भगवान् केन रूपेण वयं पश्यामः, साकाररूपेण पश्यामः वा निराकाररूपेण पश्यामः वा, गृहीतव्यं वा इति तस्य विषयः।
निज आकृतिः का इति नाम तत्र साकारः इति एव तस्य आकृतिः वा अथवा निराकारः इति एव तत्र सत्यं किम् इति। समीचीनं भगिनि, समीचीनम्। अस्तु अग्रे अपि तत्र परहंस तत्र महेन्द्रनाथः अवदत् तावत्पर्यन्तं तत्र अग्रे किञ्चित्।
अस्तु, उभयथा अपि सः यस्मिन् रूपे श्रद्धा तस्मिन् भवान् भक्तिं कर्तुम् अर्हति परमहंसः अवदत्। तस्य महेन्द्रनाथगुप्तस्य गुरुः परमहंसः, सः विद्वान् आसीत्, सः अवदत्, सः तस्य शङ्कायाः निराकरणं कर्तुम् अवदत्। भगवान् साकारः अपि निराकारः अपि उभयथा अपि भगवान् अस्ति इति सः अवदत्। यस्मिन् रूपे श्रद्धा तस्मिन् भवान् भक्तिं कर्तुम् अर्हति। भवतः श्रद्धा केन रूपेण अस्ति, केन रूपे अस्ति
तत्र श्रद्धा इति, तत्र कस्मिन् इति एव सप्तमी भवति।
भवतः श्रद्धा कस्मिन् रूपे अस्ति, भगवतः कस्मिन् रूपे भवतः श्रद्धा अस्ति तस्मिन् रूपे सः प्रकटयति। साकाररूपे श्रद्धा अस्ति चेत् सः साकाररूपे प्रकटयति, निराकाररूपे भवतः श्रद्धा अस्ति चेत् सः निराकाररूपं तस्य निराकाररूपं भवतः मनसि निधाय भवान् भक्तिं कर्तुं शक्नोति इति परमहंसः अवदत्। भगवान् साकारः स्यात् चेदपि मृदादिप्रतिमारूपः तु न, महेन्द्रनाथः अवदत्। भगवतः साकाररूपं वयं गृह्णीमः चेदपि तस्य मृदादिप्रतिमारूपः नाम मृदा यत् रूपं भगवतः रूपं वयं भगवतः रूपम् अस्ति, मृदा निर्मिता प्रतिमा भगवतः प्रतिमा, तत्तु तस्य रूपः न इति इत्यस्य अर्थः न अवदत् महोदय, न अवगतम्।
सः वदति, सः पृच्छति, अस्तु भवान् वदति नाम तत्र भगवान् साकारः अपि भवितुम् अर्हति, साकारः अपि अस्ति निराकारः अपि अस्ति, अस्तु तर्हि सः साकारः नाम सगुणः सगुणरूपवान् अस्ति भगवान्, अस्तु अङ्गीकरोमि, किन्तु साकारः अस्ति चेत् तत्र बहिः तत्र मृदादि नाम तत्र प्रतिमा शिलाप्रतिमा अथवा चित्ररूपेण तादृशरूपेण तु सः भगवान् नास्ति खलु इति, नाम तत्र बहिः यत् नाम मन्दिरे पश्यामः अथवा अन्यत्र कुत्रापि पश्यामः तत्तु सः नास्ति खलु तत्र इति, नाम अस्माकं मनसि रूपम् अस्ति तद् सत्यं, किन्तु बहिः यदस्ति स तद् सत्यं नास्ति इति तादृशम् इति मन्ये। अन्येषां चिन्तनं किमस्ति अत्र तस्य एतस्य वाक्यस्य?
तदेव इति मन्ये महोदय, तत्र महेन्द्रनाथस्य विश्वासः नासीत् मूर्तीनां पूजा,
अतः तत्र सः तत्र बहिः यदस्ति तत्र ते तु सत्यं नास्ति इति, यद्यपि साकारः इति अङ्गीकरोमि किन्तु तद् यत् बहिः पश्यामः तत्तु नास्ति इति तस्य प्रश्नः। अस्तु, समीचीनं भगिनि, अस्तु। तत्र स्यात् चेदपि तत्र प्रायशः तत्र सन्धिकार्यम् अस्ति किञ्चित् खलु तत्र, हा शोभा भगिनी किञ्चित् वदति वा तत्र स्यात् चेदपि इति?
स्यात् चेदपि इति सन्धिकार्यं वा महोदय? स्यात् इत्यस्य तकार स्यात् इत्यस्य अन्त्यस्य तकारस्य जलां जशोन्ते इत्यनेन दकारादेशः भवति, जलां जशोन्त इति सूत्रेण स्याद् चेदपि इति भवति. तत्र इदानीं चकार चर्त्वं चर्त्वात् पूर्वं तत्र जकारः भवेत् स्थुनार्चुः इत्यनेन स्तोः स्थुनार्चुः इत्यनेन दकारस्य जकारः भवति यतोहि परं चकारः चवर्गीयवर्णः अस्ति इति. स्याज् चेद् भवति तदनन्तरं खरिच इत्यनेन तत्र चर्त्वम् आगच्छति महोदय जकारस्य स्थाने चकारादेशः. स्याच् चेत् चेदपि इति भवति. चेत् इत्यस्य अपि तत्र तकारस्य जलां चशोन्ति इत्यनेन दकारादेशः भवति छेद् इति भवति. वर्णमेलनेन स्याच्छेद् अपि इति भवति.
समीचीनं भगिनि, हा धन्यवादः. तत्र उदाहरणमस्ति तत्र स्यात् चेद् इति खलु. अस्तु, सन्धिकार्यं समीचीनम्. अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे पङ्क्तिशः पठित्वा विवृणोति वा शोभा भगिनि?
अग्रिमं परिच्छेदं वा महोदय?
आम् आं भगिनि. समासः एतावत् अस्माभिः न कृतः भगिनि, न कृतः. तत्र हल् सन्धि, तत्र अच्छन्धिविषयः पठितः. हल् सन्धि विषयस्य पठने इदानीं स्मः, किन्तु एतावत् तत्र न समापितवन्तः.
अस्तु महोदय, अस्तु,
धन्यवादः. मृदादिरूपे अपि चिन्मयः सः भगवान् एव द्रष्टव्यः अस्माभिः परमहंसः अवदत्. केचन अज्ञाः मृदादिरूपमेव भगवन्तं भावयन्तः अर्चन्ति. अज्ञाः ते, अविवेकिनः ते, बोधनीयाः ते, भगवान् पूजनीयः न तु मृदादिमूर्तयः इति. इदानीं तत्र परमहंसः महेन्द्रनाथम् उक्तवान्, मृदादिरूपे अपि चिन्मयः यः भगवान् एव द्रष्टव्यः अस्माभिः, सः भगवान् एव इति. तत्र किं चिन्मयः, तत्रापि सन्धिकार्यमस्ति महोदय. चित् योगः मयः इति, तत्र चित् इत्यस्य तकारस्य स्थाने अनुनासिकनकारादेशः, यतोहि परवर्णः अनुनासिकवर्णः अस्ति. तत्र यरोनुनासिकेन नासिको वा इति सूत्रं दृष्टवन्तः. तेन सूत्रेण नक तकार तवर्गीयवर्णस्य अनुनासिकवर्णादेशः, अतः चिन् मया. तत्र मया इति प्रत्ययस्य तु नित्यं भवति एतत् कार्यं. चित् मया इति प्रत्ययः परम् आगच्छति चेत् एतत् सन्धिकार्यं नित्यं, विकल्पः नास्ति नास्ति. हा, चिन्मयः. अपि च अन्यत् एकम् अस्ति पदम्, अत अस्तु, तत् सन्धिकार्यम् अस्ति. मृदादिरूपे अपि चिन्मयः यः सः भगवान् इति उक्तवान् इत्युक्ते, तत्र चित्मयः इति तत् इत्युक्ते, तत्र चिन्मयः इत्युक्ते तादृशं स्थलमेव नास्ति यत्र सः नास्ति इति. सर्वं
तत्र सत् चित् इति अंशः,
सत् चित् आनन्द इति वा, चिति सर्वत्र एव. समयः इत्युक्ते तत्र पूरितम् इति भवति खलु महोदय. मयः इत्युक्ते जगत् ब्रह्ममयम् इति अपि वाक्यमस्ति, इत्युक्ते व्याप्यः भवति, व्याप्तं, तेन व्याप्तम् अस्ति सर्वम् इदं चित्. अतः यतोहि चित् मयः अस्ति चेत् यत्र कुत्रापि सः नास्ति इति प्रश्नः एव न भवति. अतः मृत् अपि चित् एव अस्ति. अतः मृदादिरूपे अपि चिन्मयः सः, यतोहि सः चिन्मयः अस्ति, सर्वं व्याप्य तिष्ठति. तेन कारणेन तत्रापि भगवान् अस्ति एव, अतः अस्माभिः द्रष्टव्यं, ज्ञातव्यम् अपि वा अपि अत्रापि भगवन्तम् एव द्रष्टव्यम् इति वदति परमहंसः.
भगवान् भगवान् एव द्रष्टव्यः, भगवान्
भगवान् एव
द्रष्टव्यः अस्माभिः अस्माभिः.
सत्यं महोदय, क्षम्यतां,
कर्मणि
भगवान् एव द्रष्टव्यः अस्माभिः
अस्माभिः.
इत्युक्ते यत्र कुत्रापि, यत्र कुत्रापि
मृगादिरूपे अपि, तत्र बहिः अस्ति चेदपि अस्माकं तत्र अस्मात् भिन्नं तत्र बहिः इति चिन्तयामः, किन्तु तत्रापि सर्वत्र सः एव अस्ति. मृदादि नाम प्रतिमा भवतु, चित्रं भवतु, कुत्रापि सः एव तत्रापि अस्ति,
तत्रापि अस्ति इति
अस्ति इति अस्माभिः चिन्तनीयः इति.
आम्
अस्तु,
तत्र केचन जनाः इदानीं सः एव वदति इति मन्ये, केचन अज्ञाः तत्र महेन्द्रनाथः अस्तु
गुप्तः वदति.
केचन अज्ञाः, तत्र अज्ञाः इत्युक्ते ज्ञः इत्यस्य अर्थः अस्ति यः जानाति इति, ज्ञानम् अस्ति यस्य इति, तत्र नैतत्पुरुषः समासः अज्ञाः इति बहुवचने अज्ञः इत्यस्य, यस्य ज्ञानं नास्ति इति, सम्यक् ज्ञानं नास्ति इति. केचन अज्ञाः मृदादिरूपम् एव भगवन्तं भावयन्तः अर्चन्ति, इत्युक्ते ये मृदादिरूपे भगवन्तं द्रष्टुम् इच्छन्ति, ते तु अज्ञानी, अज्ञानिनः एव इति तस्य
किञ्चित् भिन्नं भगिनि. नाम तत्र मृदादिरूपमेव भगवन्तं
भावयन्तः,
तत्र नाम तत्र भावयन्तः, भावयन्तः इति तत्र रूपं कीदृशम् अस्ति,
तत्र शत्रन्तप्रयोगः भवति, इत्युक्ते ते मृदादिरूपं भगवान् इति अङ्गीकृत्य अर्चयन्ति इति अर्थः तत्र
तद् अस्ति, किन्तु तत्र एव इति अस्ति खलु,
मृदादिरूपम् एव अस्तु इत्युक्ते
रूपमेव भगवान् तत्र,
रूपमेव भगवान् इत्युक्ते सर्वत्र अस्ति तत्रापि अस्ति इति न, तत्र एव अस्ति इति वा, मृदादिरूपे एव भगवान् अस्ति किन्तु अस्तु इत्युक्ते मूर्तिः अस्ति, तस्यां मूर्त्याम् एव भगवान् अस्ति, न तु अन्यत्र सर्वत्र इति वा महोदय. अस्तु, तर्हि तत्र अर्थः इति चिन्तयन् सत्यं, मृदादिरूपम् एव भगवन्तं भावयन्तः अर्चन्ति अज्ञाः ते, अविवेकिनः ते, बोधनीयाः ते, भगवान् पूजनीयः न तु मृदादिमूर्तयः इति वदति. तस्य आशयः तु भगवान् किं तत्र, यतोहि इदानीं वदनस्ति मूर्तिं मा पूजयतु किन्तु भगवान् भगवन्तं पूजयतु इति, तर्हि तस्य एव किम् अवगमने दोषः अस्ति खलु, मृदादि रूपे भगवान् अस्ति इति सः एव न जानाति, सः चिन्तयति अस्तु
अस्तु, तत्र इदानीं तत्र एतद् भवति खलु भगिनी, नाम तत्र किञ्चित् वेदान्तं जनाः पठन्ति तदनन्तरं चिन्तयन्ति अस्तु अस्तु, तत्र दैनिक तत्र पूजा एतत् सर्वं किमर्थं, तत्र आत्मचिन्तनमेव तदेव सर्वं,
तदेव सः यस्मिन् किं सङ्घे आसन् महोदय, तत्र एतादृशः विचारः एव स्वीकृतं, तत्र मूर्तिपूजायाः किं
बहिष्कारः आसीत्,
खण्डनमेव कृतम्, अतः तत् तस्य विचारः आसीत्, मूर्तिपूजा तु ये अग्नाः सन्ति तेषां कृते एव इति, अतः एतत् सर्वम् उक्तवान् तस्य तस्य मनसि तु तदेव
कः उक्तवान् महोदय? परमहंस उक्तवान्
वा? न न न न महेन्द्रनाथ गुप्तः
तत्तु न दत्तं तत्र,
किन्तु तदेव अस्ति भगिनि
केचन अज्ञाः मृदा.
एतत् सर्वं महेन्द्रनाथ गुप्तः एव उक्तवान्. अहं किमर्थं विश्वासेन वदामि इत्युक्ते तत्र अहं न जानामि, किन्तु प्रायशः तत्र
परमहंसः तु वक्तुं न शक्नोति तत्
न न किन्तु
सः तु
भवत्यः तत्र गास्पेल् आफ् रामकृष्ण इति पठितवत्यः खलु सर्वे,
नो चेत् महेन्द्रनाथ गुप्ता अण्ड् रामकृष्ण परमहंसः
सः एव लेखकः, महेन्द्रनाथ गुप्तः एव लेखकः, एम् इति अस्ति, सः एव लेखकः, सहैव एतां घटनां एतायाः घटनायाः विवरणं करोति तत्र पुस्तके. अतः अहं जानामि तत्र एतत् सः एव उक्तवान् इति, तावदेव. वेदभगिनी
अस्तु महोदय,
आरम्भे अस्ति, आरम्भे एव अस्ति एषा घटना, प्रथम अथवा तत्र द्वितीये दिने अथवा तृतीये दिने तत्र यदा तत्र तस्य रामकृष्णपरमहंसस्य दर्शनं प्राप्तं तस्य बहु किं तत्र दिनद्वयं दिनत्रयानन्तरं एषा घटना तत्र भवति आरम्भे एव पुस्तके.
तेषु दिनेषु ब्रह्मसमाजे एतत् सर्वं पठितमासीत्.
सत्यं भगिनि, अतः तत्र तस्य प्रभावेन एतत् सर्वं तेन पृष्टम् अस्ति. समीचीनं भगिनि, तर्हि अस्तु भगिनि, तत्र अन्य कोऽपि पठेत् तर्हि. धन्यवादः भगिनि, सन्धिकार्यमपि कृतवती. अस्तु तर्हि अग्रे तत्र निवेदिता भगिनि अग्रे पठितुम् इच्छति वा?
भवादृशानां सुशिक्षितमन्यमानानां कश्चन उत्साहः अन्येषां बोधने. वाक्यस्य अर्थं
नाम बोधने तत्र कश्चन उत्साहः बोधने अस्ति, कश्चन उत्साहः अस्ति. उत्साहः यथा श्रद्धा इति भाववाचकः अस्ति तत्र सप्तमी. कस्मिन् विषये? तत्र बोधने अन्येषां बोधने. बोधने इति तत्र तस्मिन् विषयसप्तमी, तत्र बोधनं नाम तत्र अन्येषां शिक्षणं, तत्र सर्वे एतद् सर्वैः एतद् ज्ञातव्यः विषयः, अहं तत्र सर्वेषां कृते वदामि, तत्र सर्वे अवगच्छन्तु इति तत्र तादृश उत्साहः महेन्द्रगुप्तस्य आसीत्.
अत्र मन्यमानानां
कश्चन उत्साहः कस्य? महेन्द्रनाथगुप्तस्य, किन्तु महेन्द्रनाथगुप्तः एकः नासीत्, नाम सः तादृश उत्साहः महेन्द्रनाथगुप्ते अपि सः भवदृशानां केषां जनानां तत्र
अत्र शानस् प्रत्ययः अस्ति, षष्टि विभक्ति
नाम मन्यमानानां किं मन्यमानानां? एषः सुशिक्षितः अस्ति नाम तत्र सः विद्यावान्
उपरोधः अस्ति खलु
महोदय अहं चिन्तयामि ये जनाः आत्मानं सुशिक्षितम् इति मन्यन्ते
तत्र उपरोधः अस्ति खलु
सत्यं भगिनि तत्र भवन्तः चिन्तयन्ति भवन्तः सर्वे जानन्ति नाम शिक्षिताः जनाः तत्र विद्यालयं गतवन्तः तत्र सर्वं पठितवन्तः इति अतः वयं
चिन्तयन्तः
विद्वज्जनाः इति चिन्तनं केवलं तत्र भवतामेव तत्र ज्ञानमस्ति अन्येषां ज्ञानं नास्ति इति अतः तत्र अन्येषां बोधने तत्र उत्साहः अस्ति
तर्हि सुशिक्षितमन्यमानः इति सः यः आत्मानं सुशिक्षितम् इति मन्यते सः
लोके अपि तदेव चिन्तनमस्ति खलु भगिनि नाम तत्र यदि कोऽपि वदति अस्तु अहं तत्र एतस्मिन् विद्यालये पठितवान् एतत् तत्र डिग्री प्राप्तवान् अस्तु अस्तु तस्य सः विद्यावान् अस्ति इति एव चिन्तनमस्ति खलु तत्र महेन्द्रनाथगुप्तः अपि तत्र तादृशं तत्र कलकत्तानगरे सः तत्र विश्वविद्यालये पठितवान् एतत् सर्वं कृतवान् एव तदनन्तरमेव तत्र रामकृष्ण परमहंसस्य समीपं गतवान् अतः सुशिक्षितम् अस्ति जनाः तत्र समाजः तत्र मन्यते तत्र एषः विद्यावान् अस्ति इति किन्तु तत्र रामकृष्णपरमहंसः तादृशं न मन्यते
अत्र कश्चनः कश्चनः विसर्गः अस्ति खलु कश्चन विसर्गसन्धिः अस्ति विसर्गस्य सकारस्य शकारः भवति
आम् आं भगिनि कश्चन
आत्मा कथं परिष्करणीयः स्वहृदये प्रकाशः कथम् उत्पादनीयः इत्यादिषु सर्वथा अनास्था भवताम्
भवतः उत्साहः अपि तत्र मनसि उत्साहः नाम यस्मिन् विषये अस्माकं मनः सर्वदा तिष्ठति खलु यस्मिन् विषये चिन्तनं कस्मिन् विषये सर्वदा भवति तत्र उत्साहः तत्र अन्येषां बोधने उत्साहः वर्तते किन्तु आत्मा कथं परिष्करणीयः नाम तत्र परिष्कारः नाम अस्माकं अभिवृद्धिः नाम तत्र तत्र स्वाध्याये इति नास्ति किन्तु तत्र किं कथं वक्तुं शक्नुमः तत्र
परिष्करणीय त्यजनीय परिष्करणीय
आत्मा कथं परिष्करणीयः नाम अस्माकं तत्र त्यजनीयः इति नास्ति भगिनि नाम तत्र अस्माकं तत्र जीवने तत्र यः मार्गः येन मार्गेण अग्रे गन्तव्यः मार्गे अग्रे गच्छामि न वा इति न दृष्ट्वा अन्येन गच्छन्ति इति यदि वदामः नाम आत्मा कथं परिष्करणीयः नाम तत्र स्वस्य अभिवृद्धिः नाम तत्र लोके अभिवृद्धिः नास्ति किन्तु तत्र किं
महोदय तत्र आत्मना आत्मानम् उद्धरेत् इति अस्ति खलु भगवद्गीतायां
तत्र आत्मा कथं परिष्करणीयः तत्र अस्माकं तत्र परिष्कारः नाम पालिश् अथवा रिफैन् इति अर्थे भवति खलु भगिनि
सेल्फ् डिसिप्लिन् अपि अस्ति वा
न भगिनि तत्र आत्मा कथं परिष्करणीयः तत्र अस्माकं एबल् तत्र अभिवृद्धिः इति वदामि तत्र तदेव पदं मनसि आगच्छति
दोषमार्जनमिति
मार्जनमिति अपि वक्तुं शक्नुमः तत्र
दोषमार्जनमिति
तत्र प्रायशः तत्र सम्यक् पदं किं भवेत् तत्र नाम अस्माकं आध्यात्मिकी विषये तत्र अस्माकं तत्र एषु विषयेषु अस्माकम् उत्साहः भवेत् तत्र आत्मदर्शने अस्माकं तत्र अस्माकं उत्साहः भवेत् न तु तत्र अन्येषां बोधने इति चिन्तयामि हा यतोहि तत्र स्वहृदये प्रकाशः कथम् उत्पादनीयः इत्यादिषु नाम अस्माकं तत्र यथा तत्र आदिशङ्कराचार्यस्य तत्र अस्ति खलु तत्र लघुपुस्तकं किमस्ति
परिष्कृतं
न भगिनि तत्र अपरोक्षानुभूति किमस्ति तत्र लघुपुस्तकं तत्र अपरोक्षानुभूति तत्र अस्तु विस्मरामि किन्तु नाम तत्र अस्माकं मनसि यत् यत् सर्वं तत्त्वं यत् जानीमः तद् तस्य प्रकटनं भवेत् खलु केवलं तत्र वाक्यरूपेण अस्ति इति तेन किमपि नास्ति खलु तत्र अस्माकम् अभिवृद्धिः भवेत् तत्र अस्माकं मनसि तत्र आध्यात्मिकमार्गे अग्रे अस्माभिः गन्तव्यः न तु तत्र अन्येषां तत्र अस्माकं केवलं तस्मिन् विषये अस्माकम् अभिरुचिः अस्ति चेत् तत्र किं भवति तत्र नाम एतत् सर्वदा वदन्ति खलु नाम तत्र गुरुः एव तत्र जानाति तत्र सः एव तत्र नौका इव सर्वान् तत्र संसारस्य अन्यत्र अन्यभागे तत्र तत्र तारयति इति किन्तु सर्वे जनाः तादृशं न कर्तुं शक्नुवन्ति खलु वयं तत्र संसारस्य सागरं तरितुं न शक्नुमः किन्तु केवलं गुरुः एव कर्तुं शक्नोति अतः अस्माकं मनः किमर्थं तत्र अन्येषां बोधने गच्छति महेन्द्रनाथगुप्तः तु तत्र गुरुः नास्ति खलु तत्र
सेल्फ् रियलैसेशन् अस्ति वा महोदय
हा तादृश अर्थे अस्ति भगिनि हा आत्मज्ञानम् इति
स्वहृदये प्रकाश
समीचीनं भगिनि एतावत्
हा आमां स्वहृदये प्रकाशः कथम् उत्पादनीयः अत्र अनियर् प्रत्ययः अस्ति उत्पादनीयः परिष्करणीयः स्वहृदये प्रकाशः प्रकाशः अत्र ज्ञानस्य प्रकाशः वा
प्रकाशः नाम आत्मनः साक्षात्कारम् इति
साक्षात्कारस्य प्रकाशः आत्मनः कथम् उत्पादनीयः इत्यादिषु इत्यादिविषयेषु सर्वत्र सर्वथा सम्पूर्णतया अनास्था भवताम् आस्था
नास्ति तत्र उत्साहः अन्येषां बोधने अस्ति यावत् उत्साहः तत्र यावन् उत्साहः अन्येषां बोधने अस्ति तावन् उत्साहः
किन्तु
चिन्तने नास्ति
यः एतज्जगत् सृष्टवान् यः वृष्टिसस्यादिकं सृष्टवान् यः मातापित्रादिषु प्रीतिवात्सल्यदिकम् अपूरयत् देवः किं किं करोति ईश्वरः किं किं करोति सः एतत् जगत् सृष्टवान् मतलब सृजनं करोति खलु विश्वस्य सर्जनं करोति तथा वृष्टि सस्य आदिकं निर्मितिम् अपि करोति। मातापित्रादिषु प्रीतिवात्सल्यादिकम् अपूरयत्। मातापित्रादिषु
तत्र पित्रादिषु विभक्ति का
तत्र सप्तमी विभक्ति अस्ति खलु?
सप्तमी
सप्तमी मनसि प्रीतिवात्सल्यादिकम् अपूरयत् स्वबालकस्य कृते
प्रीति वात्सल्यम् इत्यादि
वात्सल्य आदि
भवेत् सम्पूर्णतया भवेत् इति पूरयति सः एव तत्र
सः एव सः भगवान् अतिषु ज्ञानमपि उत्पाद चेत् यत् काले सः भगवान् सः भगवान् किं किं न करोत् सः अन्येषु अत्रापि सप्तमी विभक्ति अस्ति ज्ञानम् अपि अन्येषु अद्यजनानां मनसि अपि सः भगवान् ज्ञानस्य निर्मितिम् अपि कर्तुं शक्नोति
काले उत्पादय काले नाम गच्छता कालेन ज्ञानस्य उत्पादनमपि भवति
सर्वं कृतवता तेन किम् एतावत् कर्तुं न शक्येत् सर्वशक्तिमान इव अस्ति सः सः सृजनं करोति अर्थात् सः अन्येषु मनसि अपि ज्ञानस्य निर्मितिः कर्तुं शक्नोति तस्य कृते अशक्यं कोऽपि कार्यं नास्ति
किमपि कार्यं तत्र नास्ति यत् सः न कर्तुं शक्नोति तत्र सर्वं कृतवता तेन इति तत्र प्रथमविभक्तिरूपेण वदतु
सः तत् कुर्यात् एव पात्रा
तत्र सर्वं कृतवता तेन किम् एतावत् कर्तुं न शक्येत इति तत्र कर्मणि रूपे अस्ति कर्तृरूपे वदतु
सर्व कृतवता तेन सः
शक्येत
तेन तृतीया विभक्ति अस्ति सः सर्वं करोति
सर्वं तत्र कृतवता इति अस्ति
कृतवता
तत्र प्रथमविभक्तिरूपं किमस्ति
कृतवतः
तत्र प्रत्ययः कः तत्र
कृतः नै न न न कृत तेन सर्वं कृतवता कृतवान्
कृतवान् कृतवत् इति समीचीनं कृतवान् कृतवान्
कृतवान्
सः सर्वं कृतवान् सः
किम् एतावत्
कर्तुं शक्नोति
कर्तुं न शक्नोति
किं कर्तुं न शक्नोति सः सः सर्वं कर्तुं शक्नोति इति अर्थे अग्रे सः
तत् कुर्यात् एव पात्रापात्रतां दृष्ट्वा सः अपि मनुष्यस्य मानवस्य पात्रां मनुष्यः पात्रमस्ति वा अपात्रमस्ति इति
पात्रं नाम तत्र
योग्यमस्ति ज्ञानस्य
योग्यता अस्ति समीचीनं भगिनि पात्रता नाम योग्यता अस्ति न वा इति दृष्ट्वा सः
इति दृष्ट्वा सः सः तत् कुर्यात् करोति अस्माभिः तु आत्मनः परिष्काराय प्रयासः करणीयः अस्माभिः अत्रापि कर्मणि प्रयोगस्य रचना अस्ति खलु
अस्माभिः करणीयः कः करणीयः कः करणीयः अस्ति अस्माभिः
वयं तु आत्मनः परिष्काराय आत्मनः ज्ञानस्य प्राप्तुं वा
तत्र आत्मनः परिष्काराय परिष्कारः नाम तत्र रिफैनिङ्ग् इति
वर्धनाय
नाम वर्धनाय अथवा तत्र अग्रे तत्र तत्र अन्यविध अन्य पर्यायपदं कोऽपि जानाति वा रिफैन्
शोधनम् इति भवति
शुद्धीकर्तुं शुद्धीकर्तुम् अस्तु शुद्धीकर्तुम् इति परिष्कार प्रयत्नः करणीयः इति अतः तत्र तद् सः एव तदेव अस्माकं कार्यम् अन्यत् कार्यम् अस्माकं नास्ति अस्माभिः किं करणीयः तत्र आत्मनः परिष्काराय प्रयासः करणीयः इति अस्ति समीचीनं भगिनि हा धन्यवादः अस्तु अग्रे अग्रे तत्र इदानीं तत्र उषा दिवते भगिनि इदानीं पठितुं शक्नोति वा
आं महोदय अस्तु नाम तेषां बोधनचिन्तनम् अहं परित्यक्षामि तेषां बोधनचिन्तनम् अहम् इत्युक्ते तत्र
इदानीम् एतावत् तत्र रामकृष्णपरमहंसः उक्तवान् एतावत्
आं महोदय
इदानीं महेन्द्रनाथगुप्ता वदति
अस्तु नाम तेषां बोधनचिन्तनम् अहं परित्यक्षामि इत्युक्ते अहमित्युक्ते तत्र महेन्द्रनाथगुप्तः
तत्र तेषाम् इत्युक्ते केषां
तेषां बोधनचिन्तनम् इत्युक्ते पूर्वपरिच्छेदे अस्ति न महोदय लैक् भगवान् जगत्
उपरि दृष्ट्वा वदतु उपरि दृष्ट्वा वदतु केषाम् इति
भगवान् जगत् सृष्टवान् वृष्टि सस्यादिकं सृष्टवान् अनन्तरं माता
किन्तु केषां बोधनम् अस्तु 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 भगिनि तत्र सोपानेन गच्छामः तर्हि तत्र तेषाम् इति वाक्ये तत्र तत्र वाक्ये कर्तृपदं किम् अस्ति
तेषां सप्तमी अस्ति तत्र
न एकवारं वाक्यं पठित्वा कर्तृपदं किम् इति वदतु
तेषां बोधनचिन्तनम् अहं कर्तृपदं त्यक्ष्यामि
किं परित्यक्ष्यामि तत्र लकारः कः तत्र भूतकालः
त्यक्ष्यामि लृट् लकारः महोदय उत्तमप्रश्नः लृट् लकारः
परित्यजामि परित्यक्ष्यामि समीचीनं अहम् इदानीं तर्हि तत्र कर्मपदं भवेत् वा त्यजनम् इति क्रिया अस्ति चेत्
कं बोधन
न तत्र कर्मपदं भवति खलु तत्र सकर्मकक्रियापदं खलु बोधनचिन्तनं परित्यक्ष्यामि अस्तु समीचीनं बोधनचिन्तनं
केषां बोधनं
नाम बोधनचिन्तनम् इत्युक्ते किं
बोधनचिन्तनं बोधयति न महोदय
सः तेषां बोधनं नाम ओ अहं तेषां बोधयामि नाम तत्र ते बोधनीयाः जनाः सन्ति अहं तेषां तादृशचिन्तनं
सः कृतवान्प्रेक्ष्यामि
तादृशचिन्तनं तत् चिन्तनम् अहं त्यजामि इदानीं तेषाम् इति केषां
पूर्वप पूर्वम् उक्तं नाम
किन्तु तत्र कुत्र इति कथायां कुत्र इति एकवारं
वदतु. अज्ञाः वा?
हा
अज्ञा बोध
अज्ञाः ते अवेविकन अविवेकिनः ते
बोधनीयाः ते.
हा बोधनीयाः ते नाम तत्र बोधनीयाः ते इति तत्र अर्थः कः आसीत्? मया बोधनीयाः ते इति.
मया बोधनीया
नाम तत्र ते न जानन्ति, अहं तत्र वदामि, तत्र तेषां तत्र ज्ञानं तत्र
इत्युक्ते केचन जनाः मूढाः सन्ति ते.
हा इति ये जनाः तत्र मूर्तिम् एव भगवान् इति चिन्तयन्ति तेषां बोधनचिन्तनं. हा ते जनाः बोधनीयाः सन्ति. किन्तु इदानीं भवतः वाक्यानि श्रुत्वा अहं तेषां बोधनं तत्र बोधनविषये तेषां बोधनविषये चिन्तनं यत् मम मनसि अस्ति तत् चिन्तनम् अहं त्यजामि. इदानीं मम मनसि तत् चिन्तनं नास्ति, ते बोधनीयाः, मया बोधनीयाः इति चिन्तनं मम मनसि नास्ति.
तथापि तैः क्रियमाणा मृदादिपूजा व्यर्था एव ननु. तथापि तैः तृतीय
तैः इत्युक्ते कैः?
तथापि तैः क्रियमाण इत्युक्ते ते जनाः
अज्ञाः. इदानीम् अज्ञा इति अज्ञाः तर्हि अग्नैः खलु,
अग्नैः क्रियमाणा मृदादिपूजा व्यर्था.
इदानीम् अग्नैः अग्नैः तैः अग्नैः क्रियमाणा मृदादिपूजा
व्यर्था एव ननु. अत्र मृदादिपूजा एव व्यर्था इति
तत्र ते कुर्वन्ति, तत्र ते पूजां कुर्वन्ति मृदादि तत्र मूर्तीनां पूजां कुर्वन्ति, किन्तु सा पूजा तु व्यर्था एव खलु. तत्र पूजायाः फलं किमपि नास्ति खलु, महत्त्वं किमपि नास्ति खलु पूजायाः इति सः पुनः पृच्छति.
महेन्द्रनाथः पुनः अपृच्छत्
गुरुम् अपृच्छत् अस्तु अग्रे.
न व्यर्था
नाम पूजा न व्यर्था.
व्यर्था मृशिला काष्ठलोहादिमयानां मूर्तीनां पूजा भगवता एव व्यवस्थापिता.
किमर्थं सा पूजा न व्यर्था?
भगवान् एव व्यवस्थापनं कृतवान्
पूजा. तर्हि तत्र इदानीम् अग्रिमे वाक्ये तत्र कर्तृपदं किम् इति वदतु अग्रिमे. तत्र मृद्शिला इति तत्र आरम्भे तत्र तस्मिन् वाक्ये कर्तृपदं किम् अस्ति?
मृद्शिला काष्ठलोहदिमानां मूर्तीनां पूजा भगवता एव भगवान् भगवता.
हा तत्र हा साक्षात् कर्तृपदम् अथवा तत्र कर्मणि इति चिन्तयामश्चेत्
कर्मणि तृतीयविभक्त्या
इति चिन्तयन् चिन्तनम् अस्तु. हा किन्तु
प्रथमविभक्त्यस्ति चेत् भगवान् एव व्यवस्थापितवान् यदि मृत्शीलं
किं तत्र किम् अथवा कां व्यवस्थापितवान्?
यदि मृत्शिला अस्ति वा काष्ठशिला अस्ति वा यद् वा लोहादि नाम शिला अस्ति चेत् मूर्तीनां पूजा भगवान् एव तस्मिन् किं वदामः
एव न भगिनि अतः सोपानेन गच्छामः. भगवान् किं व्यवस्थापितवान् तत्र कर्मपदं किम् अस्ति?
पूजां
व्यवस्थापितवान् समीचीनं भगिनि. पूजां व्यवस्थापितवान् कस्य पूजा वदतु भगिनि
मूर्तीनां पूजा
वदतु भगिनि
मूर्तीनां पूजा भगवान् एव व्यवस्थापितवान्
पूजां पूजां
पूजाम् एव महोदय
यह
ऐसे पूछना बोलना चाहते हैं क्या कि ये जो पूजा है वो भी भगवान ने ही निर्माण की है ऐसा कुछ बोलना चाहते हैं
पूजा
करते हैं लेकिन उसकी निर्मिति भी मन में भगवान ने ही की है ऐसा है
सत्यम सत्यम हाँ पूजा विधि
भगवान एव स्थापित
रीत्या तत्र पूजा करणीया इति अपि तत्र भगवता एव तत्र स्थापिता अपि अस्ति खलु रीतिः अपि तत्र भगवता एव स्थापिता अस्ति मनुष्यस्य न स्थाप्य स्थापनं नास्ति इति तत्र तस्य चिन्तनं सत्यं भगिनि हा अग्रे वदतु भगिनि उषा भगिनि
मृत्शिला काष्ठ लोह
लोहादिमयानां मृत्मयानां वा शिलामयानां वा काष्ठमयानां वा लोहमयानां वा किमपि भवेत् तत्र मूर्ति अस्ति चेत्
सर्वत्र न महोदय सर्वेषां
मूर्तीनां
सर्वेषां मूर्तीनां पूजा
सर्वासां क्षम्यतां महोदय तत्र मूर्तिः इति प्रायः तत्र मूर्तिः इत्यत्र पुल्लिङ्गे अस्ति वा स्त्रीलिङ्गे अस्ति वा मूर्तिः तत्र मतिशब्दवत् वा अथवा हरिशब्दे
स्त्रीलिङ्गे
स्त्रीलिङ्गे हा तर्हि सर्वासां धन्यवादः हा सर्वासां मूर्तीनां
पूजां भगवान् एव व्यवस्थापितवान्
हा भगवान् एव व्यवस्थापितवान् समीचीनं
जातं
किं भगिनि
अतः पूजा न व्यर्था जातम्
हा पूजा न व्यर्था व्यर्था नास्ति पूजा समीचीनं हा अग्रे
यथा माता पुत्रादीनां जीर्णशक्तेः अनुगुणम् आहारादिकं सज्जीकरोति तथा इत्युक्ते यथा माता पुत्रादीनां जीर्णशक्तेः माता जानाति पुत्रादीनां जीर्णशक्तिः
कीदृशी अस्ति इति जानाति तत्र नाम उदाहरणार्थं तत्र कुन्तीं स्वीकुर्मः तत्र भीमः कीदृशः अर्जुनः कीदृशः इति सा जानाति तथा तत्र माता पुत्रादीनां जीर्णशक्तिः ज्ञात्वा
आहारं सज्जीकरोति
हा नाम तत्र लघु आहारं कस्मै ददामि हा इति सर्वं चिन्तयित्वा एव सा ददाति सज्जीकरोति एतादृशी शक्तिः मातरी अस्ति चेत्
तथा अधिकारिणां सामर्थ्यानुगुणं सः व्यवस्थां परिकल्पयति सः इत्युक्ते तत्र सामर्थ्यानुगुणं सः व्यवस्थां परिकल्पयति सः इत्युक्ते भगवान् अस्ति वा महोदय
भगवान् हा सः भगवान् समीचीनं भगिनि सः भगवान् व्यवस्थां
परिकल्पयति
यथा तत्र आहारादिकं सज्जीकरोति तत्र व्यवस्थां परिकल्पयति नाम अत्र एषा व्यवस्था आवश्यकी अत्र अन्या व्यवस्था आवश्यकी कस्य कृते अथवा कस्मै एषा व्यवस्था समीचीना इत्युक्ते इति सर्वं मनसि निधाय व्यवस्थापनं कृतवान् भगवान् तर्हि तत्र
अधिकारिणाम् इत्युक्ते
अधिकारीणाम् इति तत्र
नकारान्त अस्ति न महोदय
प्रातिपदिकं किम् अस्ति
अधिकारिणां षष्ठी बहुवचने
बहुवचनं हा समीचीनं प्रातिपदिकं प्रथमविभक्तिरूपम्
अधिकारिन्
हा गुणिन्वत् इनि प्रत्ययः अधिकारः यस्मिन् अस्ति अधिकारी नाम तत्र योग्यता इति चिन्तयतु अत्र अधिकारी नाम तत्र लौकिकरीत्या तत्र किं समाजे एषः तत्र उत्तम अधिकारी अस्ति इति न तत्र अधिकारी इति अर्थः अस्ति तत्र उत्तम अधिकारी एतत् सर्वं तत्र आध्यात्मिकविषये अपि भवति नाम तत्र ज्ञानमार्गः कस्मै तत्र समीचीनः अस्ति तत्र भक्तिमार्गः कस्मै समीचीनः अस्ति तत्र अधिकारी इति अपि पदम् आगच्छति खलु नाम तत्र सर्वे जनाः इति चिन्तयतु तत्र प्रत्येकमनुष्यस्य सामर्थ्य अनुगुणम्
भगवान्
सः व्यवस्थां
परिकल्पयति
नाम
तत्र
परिकल्पयति व्यवस्थां तत्र स्थापितवान् चिन्तयितवान् आरम्भे एव तत्र एतस्मै एषा व्यवस्था आवश्यकी भवति इति तत्र अस्माकं जन्मानन्तरं तत्र व्यवस्था स्थापिता वा पूर्वमेव स्थापिता अस्ति अतः तत्र इदानीमपि तत्र अस्तु एषा व्यवस्था अस्ति मन्दिरे गत्वा वयं पूजां करवामः एतत् सर्वं या पद्धतिः अस्ति एषा पद्धतिः पूर्व एव स्थापिता अस्ति अस्माकं कृते तत्र किम् इदानीं तत्र होमादिकं वयं कर्तुं शक्नुमः वा
मन्दिरे एव
हा तत्र अतः एव तत्र अधिकारिणं तत्र पूर्वं तत्र होमस्य अधिकारः आसीत्
के के जनाः किं किं करणीयम्
इति अपि तेषु शक्तिः अधिकारः अस्ति इति तत्सर्वं ज्ञात्वा भगवान् एतां व्यवस्थां कृतवान् परिकल्पितवान्
अतः न कापि व्यवस्था व्यर्था
हा अतः नाम तत्र या व्यवस्था लोके अस्ति सा व्यवस्था व्यर्था कापि व्यवस्था व्यर्था नास्ति नाम तत्र केचन जनाः केषां कृते तत्र आत्मचिन्तनम् इति तत्र केवलं तत्र किं केवलम् उदाहरणार्थं वदामि तत्र वेदान्तपरिभाषा इति एव पुस्तकस्य अध्ययनमेव तत्र समीचीनं भवेत् अन्येषां कृते तत्र पूजा एव समीचीनं भवेत् अतः तत्र यः वेदान्तपरिभाषा पठति सः न वक्तुं शक्नोति खलु पूजा न करणीया इति अथवा या पूजां करोति सः न वक्तुं शक्नोति खलु अस्तु अस्तु पूजा एव करणीया तत्र वेदान्तपरिभाषायाः पठनं मा परिभाषापुस्तकस्य पठनं मास्तु इति न तत् सर्व तत् नाम सर्वेषां कृते मार्गः उद्घाटितः अस्ति भगवता केवलम् अस्माभिः अग्रे गन्तव्यः अस्ति तावदेव अग्रे
अस्माभिः तु स्वस्य अन्तरङ्गे प्रकाशस्य उत्पादनाय सत्यसाक्षात्काराय उत्तमत्वप्राप्तये च प्रयासः करणीयः
हा तर्हि तत्र प्रयासः
करणीयः
हा तत्र प्रयासः करणीयः अस्माभिः अस्माभिः प्रयासः करणीयः
किं स्वस्य अन्तरङ्गे प्रकाशस्य अपि च उत्पादनाय
प्रकाशस्य च इति नास्ति प्रकाशस्य उत्पादनाय
उत्पादनाय
इति अस्ति प्रथमांशः तत्र उत्पादनाय इति विभक्ति का
तृतीया विभक्ति
न न न भवती जानाति उत्पादनाय किम्
चतुर्थी विभक्ति
चतुर्थी चतुर्थी तत्र उत्पादनार्थम् उत्पादनार्थं प्रयासः
कारार्थं
नीयः नाम तद् भवेत् उत्पादनं भवतु उत्पादनं भवेत् इति चिन्तने अस्माकं प्रयासः भवेत् अन्तरङ्गे प्रकाशस्य उत्पादनं नाम अन्तरङ्गे साक्षात्कारं तत्र आत्मनः साक्षात्कारं तस्य उत्पादनं भवेत्
अन्तः सदृशम् अङ्गं यस्य सः अन्तरङ्गे अन्तरङ्गे अन्तः सदृशम् अङ्गं यस्य सः
यस्य सः अन्तरङ्गः तर्हि अन्तरङ्गे नाम अस्माकम् अन्तरङ्गे तत्र स्वस्य स्वस्य अन्तरङ्गे नाम बहिः न
अन्तरङ्गे
अन्तः एव
अपि वक्तुं शक्नुमः
किं भगिनि
हृदये
हृदये हृदये इति चिन्तयतु हा समीचीनं हा हृदये प्रकाशस्य
उत्पादनम्
इति तस्मिन् विषये प्रयासः अस्माभिः करणीयः सत्य
साक्षात्काराय
हा सत्यसाक्षात्काराय सत्यसाक्षात्कार भवेत् इति विषये अस्माभिः प्रयासः करणीयः
उत्तमत्वप्राप्तये
इदानीं किमर्थं तत्र आय इति नास्ति ये इति अस्ति इदानीं
प्राप्तये प्राप्तं
तत्र विभक्ति कात्र
प्राप्तः प्राप्तः अस्ति वा महोदय प्राप्तये इत्युक्ते इन् सप्तमी
न न न न एतावत् किम् आसीत् तत्र उत्पादनाय साक्षात्काराय चतुर्थी अस्ति तर्हि अत्रापि चतुर्थी भवेत् खलु
प्राप्तये इत्युक्ते प्रातिपदिकं
किं भवति
उत्तम
तत्र भवती चिन्तयतु तत्र कीदृशं पदं भवेत् इति भवती जानाति किन्तु
प्राप्नोति
बहुकालात् पूर्वम् एतत् पठितवती इति कृत्वा प्रायशः न स्मरति तावदेव
प्राप्तिः अस्ति खलु
हा प्राप्तिः इकारान्तपदं मति मतिशब्दवत् कृस्वैकारः प्राप्तिः प्राप्तिः प्राप्तये मतिः मतये
इत्युक्ते
चतुर्थी एव चतुर्थी एव सप्तमी नास्ति चतुर्थी एव उत्तमत्व कस्य प्राप्तिः भवेत् उत्तमत्वम्
उत्तमगुणम्
उत्तमत्वं नाम उत्तमगुणः इत्युक्ते तत्र गुणः अस्मासु भवेत् इति तद् नास्ति उत्तमः एव तत्र उत्तमम् इति उत्तमत्वम् एव अस्मासु भवेत् इति उत्तमत्वम् उत्तमत्वस्य प्राप्तये प्रयासः करणीयः अस्माभिः
वयं करणीयम्
वयं करणीयं न अस्माभिः करणीयं
लैक् कर्मणि प्रयोगे अस्ति न महोदय
सत्यं तत्र तृतीया भवति कर्तृपदं सर्वदा तृतीया तत्र वयमिति न भवति अस्माभिः इति भवति
आत्मनः उद्धारम् अकृत्वा अन्येषाम् उपदेशाय क्रियमाणः प्रयासः व्यर्थः एव
नाम तत्र किं वदति
आत्मनः उद्धारम् अकृत्वा यदि आत्मनः उद्धारं न
स्वस्य उद्धारं
न
तत्र न कृत्वा
न करोमि चेत् न करोति चेत् अन्ये
न कृत्वा नाम अकृत्वा अकृत्वा इति एतावत् न कृतवान् कृतवती
अन्येषाम् उपदेशाय क्रियमाणः प्रयासः व्यर्थः अन्येषां यः उपदेशं करोति अन्येषाम् उपदेशाय क्रियमाणः प्रयासः व्यर्थः भवति
प्रयासः कीदृशः अस्ति क्रियमाणः यः प्रयासः क्रियते सः प्रयासः व्यर्थः अस्ति
इति विवृतवान्
किम् उद्दिश्य प्रयासः भवति उपदेशाय उपदिशामि अन्येषाम् उपदेशं करोमि इति तादृशप्रयासः व्यर्थः भवति. कदा व्यर्थः भवति? यावत् आत्मनः उद्धारं न कृतं तावत् पर्यन्तं तत्र प्रयासः व्यर्थः भवति. नाम तत्र उदाहरणम् अस्ति खलु, तत्र प्रसिद्ध उदाहरणं नाम तत्र स्वस्य हृदये तत्र दीपः तत्र प्रकाशः नास्ति चेत् तत्र बहिः तत्र रात्रिः अस्ति इति चिन्तयतु. तत्र कोऽपि अस्ति, तस्य हस्ते तत्र दीपः नास्ति, सः किं तत्र अन्येषां मार्गदर्शनं दातुं शक्नोति वा अन्येषां कृते? हा, यस्य हस्ते तत्र दीपः अस्ति सः अस्तु
मार्गम्
अस्मिन् मार्गे गच्छतु इति तत्र मार्गदर्शनं कर्तुं शक्नोति. तथैव तत्र अस्माकं तत्र अन्तरङ्गे यदि प्रकाशः नास्ति तथा वयं कथं तत्र अन्येषां
उपदेशे
प्रकाशं कारयितुं शक्नुमः खलु? तत्र ब्लैण्ड् लीडिङ्ग् द ब्लैण्ड् इति अपि तत्र ते वदन्ति खलु.
इति
इति अस्ति
इति विवृतवान् परमहंसः, इति विवरणं दत्तवान् परमहंस महर्षिः.
अग्रे
महेन्द्रनाथः परमहंसेन बोधितम् एव मनसि आकलयन् ततः निर्गतवान्. महेन्द्रनाथः अपि समाधानं प्राप्तवान्. अस्तु, आत्मनः उद्धारम् अस्माकं स्वस्य अन्तरङ्गे प्रकाशस्य उत्पादनाय सत्यसाक्षात्काराय उत्तमप्राप्तये च प्रयासः करणीयः इति समाधानं प्राप्तवान् परमहंस बोध परमहंसेन बोधितम् एव मनसि स्थापितवान् अनन्तरं ततः निर्गतवान्
मनसि आकलयन् आकलयन् आकलयति आकलयन्
शत्रुप्रत्ययम्
तत्र आकलयति तत्र आकलयन् नाम तत्र मनसि निधाय इति मन्ये मनसि निधाय
निर्गतवान्
तत्र एतत् तत्र तदेव तत्र अस्तु यत् परमहंसेन उक्तं तत् समीचीनम्
अस्तु
सत्यमस्ति अस्तु एतदेव समीचीनम् अस्ति अस्तु यः यः विषयः तेन उक्तः सः विषयः समीचीनः अस्तु. इदानीं तत्र तस्मिन् मनसि किञ्चित् परिवर्तनं जातं. यत् पूर्वमासीत् ये यत् चिन्तनं पूर्वम् आसीत् तादृशचिन्तनम् इदानीं नास्ति. हा, तत्र परमहंसेन बोधितं यद् अस्ति तेन तस्य मनसि परिवर्तनं जातं तत्र इति ततः निर्गतवान् अस्तु. हा,
इत्युक्ते साकार उत निराकार
भगिनी तत्र केवलम् एकमेव उत्तरं तत्र दातुं शक्यते नाम तत्र
मूर्तिं करणीयं वा अथवा अन्तरङ्गे तत् स्वीकुर्मः वा महोदय अत्र?
हा, तत्र तत्र एकमेव उत्तरम् अहं जानामि नाम तत्र यदि भवती इच्छति चेत् तत्र गोस्पेल् आफ् रामकृष्ण पठतु. अन्यत् उत्तरं कोऽपि वक्तुम् इच्छति वा तत्र, अथवा एतदेव उत्तरं भवति वा किम्? अन्येषां चिन्तनं किम् अस्ति तत्र भगवान् साकारः निराकारः वा इति प्रश्ने सति अपि एतां कथां पठितवन्तः इति कृत्वा उत्तरं किं
साकारः अपि अस्ति निराकारः अपि अस्ति. निराकारः अस्ति चेत् मनसि तस्य किं वदामि तस्य परिष्कारम् इति भवति मनसि. आत्मानः परिष्कारं भवति. तद् निराकार इति तत्र उक्तं शक्नुमः. अन्य चेत् यदि मृत्शिला कष्ट मन्दिरे यद् भगवान् मूर्ति अस्ति तत् कोऽपि तस्य पूजां करोति चेत् तद्पि समीचीनं. तत्र भगवान् साकारः इति मन्ये अति
भगवान् तथैव तथैव समीचीनं भगिनि.
यथा भावः तथा देवः वयं
तथा देवः समीचीनं भगिनि.
करेक्ट्.
नाम तत्र यदि वयं तत्र बालकेभ्यः वयं वदामः तत्र आत्मा सच्चिदानन्दः अस्ति, सत् अस्ति, चित् अस्ति, आनन्दः अस्ति इति यदि वदामः चेत् किं तत्र देवस्य विषये भक्तिः आगच्छति वा?
यदा भगिनी उक्तवती भाव बालकः अपि यदि अहं बालक शिशुः यदि अहं द्रक्ष्यामि तदपि अहं भगवानस्य रूपमेव अहं मन्ये.
भगवतः रूपं
भगवतः रूपम् इति अहं मन्ये.
सत्यं भगिनि. हा सत्यं भगिनि. हा तथा यथा शुद्धा भगिनी उक्तवती यथा भावः तथा देवः इति उत्तमम्. अन्येषां चिन्तनम्
अपि च निराकारपूजनमिति किञ्चित् उच्चैः उच्चस्तरीय शिक्षणमस्ति, ज्ञानमस्ति. तत्र सोपानेन गच्छामः. तस्य प्रथमं सोपानमस्ति साकारदेवस्य पूजनम् एव.
तस्मात्
किञ्चित् अग्रे गत्वा परिष्कारं कृत्वा एव वयं निराकारभगवतः पूजनम् अग्रे गत्वा वयं कर्तुं शक्नुमः. परन्तु प्रथमं सोपानं तु मूर्तिपूजा एव सामान्यलोकानां कृते तु मूर्तिपूजा एव. मन्दिरे गत्वा वयं मूर्तिपूजां कुर्मः, तदेव प्रथमं सोपानं. परन्तु तत्र पूर्णभावेन पूर्णहृदयी भगवान् स्थित्वा पूर्णभावेन तत्र करणीयं. तदा एव अग्रे गत्वा अन्यानि
सोपानानि तत्र गन्तुं सोपानानि गन्तुं शक्नुमः.
उच्चसोपानानि वयं गन्तुं शक्नुमः इति.
समीचीनं भगिनि. हा तथैव अस्ति. तत्र यथा तत्र उदाहरणार्थं तत्र आदिशङ्करस्य अपि तत्र निर्गुणमानसपूजा इति इत्यादिकमपि अस्ति. किन्तु तत्र
भवान् किं पुस्तकम् उक्तवान् महोदय, किञ्चित् स्थापयति वा?
तत्र वेदान्तपरिभाषा इति शोभा भगिनी जानाति एतत्
पुस्तकम्. अवगमनस्य कृते सरलमस्ति वा?
न भगिनि, किन्तु तत्र तस्मिन् पुस्तके तत्र अहं तत्र कस्यचित् तत्र लेक्चर्स् श्रुतवान्, तत्र बहु उत्तमरीत्या तत्र विवृणोति सर्वं. तत्र वेदान्तस्य परिभाषा नाम तत्र वेदान्तशास्त्रे ये अंशाः अवगन्तव्याः तेषां तत्र सम्यक् बोधः भवति अस्मिन्. तत्र एण्ट्रि लेवल् पुस्तकमस्ति आरम्भे. यथा तत्र न्यायशास्त्रे यथा तर्कसङ्ग्रहः अस्ति तथैव तत्र वेदान्तपरिभाषा इति अस्ति. किन्तु अहं तत्र आङ्ग्लभाषायां तत्र उपन्यासदशं श्रुतवान्, बहु समीचीनमस्ति तस्मिन्. किन्तु तत्र सर्वत्र न्यायशास्त्रस्य तत्र आवश्यकता अस्ति. किन्तु बहु समीचीनमस्ति भगिनि. तत्र
किञ्चित् स्थापयतु महोदय, तस्य नाम, लेखकः अपि
धन्यवादः. परोक्षानुभूति अपि भवान्
अनुभूति इति अपि. अन्यत् किमपि आसीत् भगिनि तत्र आदिशङ्करस्य
आत्मबोध?
आत्मबोध इति न, अपरोक्ष अनुभूति एव प्रायशः तदेव नाम. आमामां नाम परोक्ष नाम पार अक्ष नाम अन्येषाम् अक्ष इति नास्ति, अनुभूति नास्ति, किन्तु अपरोक्ष नाम स्वस्य हृदये एव तत्र अनुभूतिः अनुभवः भवेत् इति एव तत्र यदा तत्र पूर्वम् आसीत् खलु तत्र किम् आसीत् तत्र स्वहृदये तत्र हा आत्मा कथं परिष्करणीयः इति तत्र तत्सर्वं तत्र बहिः नास्ति अन्तः एव तत्र अस्माकं तत्र प्रकाशः भवेत् तत्र आत्मसाक्षात्कारं भवेत् इति तावदेव किन्तु हा सोपानानि अनेकानि सन्ति तावत् तत्तु जानीमः अस्तु कथा तु समीचीना आसीत् अतः तत्र एतावदेव तत्र अस्माकं वर्गः सम्पन्नः इति मन्ये भगिनि यतोहि इदानीं तत्र समयः एव नास्ति अन्यकथायाः कृते किन्तु उत्तमकथा अस्ति समीचीनं तत्र ये न पठितवन्तः एतावत् तत्र गास्पल् आफ् रामकृष्णं बहु समीचीनम् अस्ति गास्पल् आफ् रामकृष्ण इति महेन्द्रनाथ गुप्ता एव तत्र
गास्पल् आफ् रामकृष्ण इङ्ग्लिश् इङ्ग्लिश्
इङ्ग्लिश् इङ्ग्लिश् नाम पूर्वं तत्र बेङ्गालीभाषे भाषायाम् आसीत् इति मन्ये किन्तु तत्र ट्रान्स्लेशन् अस्ति अनुवादः अस्ति बहु समीचीनमस्ति भगिनि हा तत्र पुस्तकं कुत्रापि तत्र उद्घाटयतु किमपि भवति बहु समीचीनमस्ति सरलमेव अस्ति बहु सरलमस्ति बहु उत्तममस्ति तत् मह्यं बहु रोचते पुस्तकम् अनेकवारं पठितवान्
अनेके धन्यवादः महोदय तादृशानि पुस्तकानि इच्छामि
बहु उत्तममस्ति भगिनि तत्र यदि एकवारम् उद्घाटयतु तत्र केवलं तत्र तस्मिन् समये केवलम् एतदेव मनसि आसीत् नाम तत्र बेङ्गालीभाषा अहं न जानामि इति यतोहि सः बहुवारं तत्र रामप्रसाद् इति कोऽपि कविः अस्ति तस्य विषये सदा वदति किन्तु हा किन्तु बहु समीचीनमस्ति भगिनि तत्र कृष्णस्य विषये काली देव्याः विषये बहु उत्तममस्ति अहम् इदानीं न स्मरामि तत्र कालीदेव देवी विषये अपि तत्र तत्र भवति तत्र अन्फातमबल् ब्यूटि इन् डार्क् केव्स् तच् वै तत्र तत्र एव द्रष्टव्यं भगिनि बहु उत्तममस्ति तत्र यदि आङ्ग्लभाषायामेव तत्र एतादृशमस्ति बेङ्गालीभाषायां इतोपि बहु उत्तमं भवेत् खलु
महोदय रामकृष्ण मिशन् के यहाँ मिल सकती है ना
सत्यं भगिनि सत्यं जरूर
मुंबई नगरे अस्ति खलु मुंबई में रामकृष्ण मिशन का कार्य वहाँ पे मतलब वहाँ पे होता है तो शायद उनके यहाँ मिल सकते हैं
उनके 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 पास जरूर होगा
ऑनलाइन अस्ति महोदय ऑनलाइन अस्ति रामकृष्ण मिशन ऑनलाइन किमपि पुस्तकं ग्रंथं प्राप्तुं शक्नुमः
हा इवन इन यूएसए आल्सो इट इज अवेलेबल कैलिफोर्निया
बहूनि पुस्तकानि ग्रंथाः सन्ति
एतत् पुस्तकं तत्र तदनन्तरम् अनेके जनाः लिखितवन्तः किन्तु एतत् साक्षात् तत्र रामकृष्णपरम् अंशस्य जीवनचरित्र इति
महोदय ऐ हेव् अ प्रश्न बट् इन् इङ्ग्लिश् ऐ एम् गोयिङ्ग् टु आस्क् यू इन् वेदास् आर् उपनिषद् आर् वेदान्तास् एनिवेर् इस् इट् मेन्शन् दट् वी हेव् टु बि वेजिटेरियन् इस् इट् रिटन् एनिवेर् that how come some people are like vegetarian and some are non vegetarian is there a rule is it a definition given somewhere
no tatra vanimudrayam sthagyam yato hi tatra idanim
एकनिमिषः एकनिमिषः
ओ अन्तिम जीपि वदामि वा
तत्र भवती वदतु तत्र शान्तिमन्त्रं
वदतु
भवती एव वदतु
ओ अस्तु एकनिमिषम् अन्य कोऽपि वदतु
तर्हि तत्र अन्य कोऽपि तत्र
ओके पूर्णमिदं पूर्णमद पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः सर्वेभ्यो नमः नमस्कारः
धन्यवादः भगिनी धन्यवादः नमस्कारः सर्वेभ्यो नमः